ओम शिवपुराण श्रवण विधि शौनक उवाच सूत सूत महाप्राज्ञ व्यास शिष्य नमोस्तुते धन्यस्त्वं शिववर्योऽसि वर्णनीय महद्गुणः श्रीमच्छिवपुराणस्य श्रवणस्य विधिं वद येन सर्वं लभेत् श्रोता सम्पूर्णं फलमुत्तमं सूत उवाच अथ ते संप्रवक्ष्यामि सम्पूर्ण फलहेतवे विधिं शिवपुराणस्य शौनक श्रवणे मुने दैवज्ञं च समाहूय सन्तोषि च जनान्वितः मुहूर्तं शोधयेच्छुद्धं निर्विघ्नेन समाप्तये वार्ता प्रेष्या प्रयत्नेन देशे देशे च सा शुभा भविष्यति कथा शैवी आगन्तव्यं शुभार्तिभिः दूरे हरिकथा केचिद्दूरे शङ्करकीर्तनाः स्त्रियः शूद्रादयो ये च बोधस्तेषां भवेद्यतः देशे देशे शाम्भवाये कीर्तनश्रवणोत्सुकाः तेषाम् आनयनम् कार्यम् तत्प्रकारार्थमादरात् भविष्यति समाजोऽत्र साधूनाम् परमोत्सवः पारायणे पुराणस्य शैवस्य परमाद्भुतः श्रीमच्छिवपुराणाह्व रथपानाय चादरात् आयात्वरम् भवन्तश्च कृपया प्रेम तत्पराः नावकाशो यदि प्रेम्णा गन्तव्यम् दिनमेककम् सर्वदा गमनम् कार्यम् दुर्लभा च क्षणस्थितिः तेषामाह्वानमेवम् हि कार्यम् स विनयम् मुदा आगतानाम् च तेषाम् हि सर्वथा कार्य आदरः शिवालये च तीर्थे वा वने वापि गृहेऽथ वा कार्यम् शिवपुराणस्य श्रवणस्थलमुत्तमम् कार्यम् संशोधनम् भूमेर्लेपनम् धातुमण्डनम् विचित्ररचना दिव्या महोत्सवपुरःसरम् गृहोपस्करमुद्धृत्य निखिलम् तदयोग्यकम् एकान्ते गृहकोणे चादृश्ये यत्नान्निवेशयेत् कर्तव्यो मण्डपोऽत्युच्चैः कदलीस्तम्भमण्डितः फलपुष्पादिभिः सम्यग् विश्वग्वैतानराजितः चतुर्दिक्षु ध्वजारोपः सपदाकः सुशोभनः सुभक्तिः सर्वथा कार्या सर्वानन्दविधायिनी सङ्कल्प्यमासनम् दिव्यम् शङ्करस्य परात्मनः वक्तुश्चापि तथा दिव्यमासनम् सुखसाधनम् श्रोतॄणाम् कल्पनीयानि सुस्थलानि यथारदः अन्येषाम् च स्थलान्येव साधारणतया मुने विवाहे यादृशम् चित्तम् तादृशम् कार्यमेव हि अन्या चिन्ता विनिर्वार्या सर्वा शौनकलौकिकी उदङ्मुखो भवेद्वक्ता श्रोता प्राग्वदनस्तथा व्युत्क्रमः पादयोर्ज्ञेयो विरोधो नास्ति कश्चन अथवा पूर्वदिज्ञेया पूज्य पूजकमध्यतः अथवा सम्मुखम् वक्तुः श्रोतॄणाम् आननम् स्मृतम् व्यासासनसमारूढो यदा पौराणिकोदिजः असमाप्तौ प्रसङ्गस्य नमस्कुर्यान्न कस्यचित् बालो युवाधवृद्धो वा दरिद्रो वापि दुर्बलः पुराणज्ञः सदा वन्द्यः पूज्यश्च सुकृतार्थिभिः नीचबुद्धिम् न कुर्वीत पुराणज्ञे कदाचन यस्य वक्त्रोद्गता वाणी कामधेनुः शरीरिणाम् गुरुवत्सन्ति भावो जन्मतो गुणतश्च वै परो गुरुः पुराणज्ञस्तेषाम् मध्ये विशेषतः भवकोटिसहस्रेषु भूत्वा भूत्वा अवसीदताम् यो ददाति पराम् मुक्तिम् कोऽन्यस्तस्मात् परो गुरुः पुराणज्ञ शुचिर्दक्षः शान्तो विजितमत्सरः साधुः कारुण्यवान् वाग्मी वदेत् पुण्यकथामिमाम् आसूर्योदयमारभ्य सार्ध द्विप्रहरान्तकम् कथाशिवपुराणस्य वाच्या सम्यक् सुधीमता ये धूर्ता ये च दुर्वृत्ता ये चान्ये विजिगीषवः तेषाम् कुटिलवृत्तीनामग्रे नैव वदेत् कथाम् न दुर्जनसमाकीर्णे न तु दस्यू समावृते देशेन धूर्तसदने वदेत् पुण्यकथामिमाम् कथाविरामकर्तव्यो मध्याह्ने हि मुहूर्तकम् मलमूत्रोत्सर्जनातम् तत्कथा कीर्तना नरैः वक्त्रा क्षौरम् हि संस्कार्य दिनादर्वाग्व्रताप्तये कार्यम् संक्षेपतो नित्यकर्म सर्वम् प्रयत्तदः वक्तुः पार्श्वे सहायार्थस्मन्यम् स्थाप्यस्तथाविदः पण्डितः संशयच्छेत्ता लोकबोधन तत्परः कथा विघ्नविनाशार्थम् गणनाथम् प्रपूजयेत् कथाधीशम् शिवम् भक्त्या पुस्तकम् च विशेषदः कथाम् शिवपुराणस्य शृणुयात् आदरात् सुधीः श्रोता सुविधिना शुद्ध शुद्धचित्त प्रसन्नधीः अनेककर्म विभ्रान्तः कामादिषड्विकारवान् स्त्रैणः पाखण्डवादी च वक्ता श्रोता न पुण्यभाग् लोकचिन्ताम् धनागारपुत्रचिन्ताम् युधस्य च कथाचित्तशुद्धमतिः स लभेत् फलमुत्तमम् श्रद्धाभक्तिसमायुक्ता नान्यकार्येषु लालदः वाग्यताशुतयो व्यग्रः श्रोतारः पुण्यभागिनः अभक्ता ये कथाम् पुण्याम् शृण्वन्तीमाम् नराधमाः तेषाम् श्रवणजम् नासि फलम् दुःखम् भवे भवे असम्पूज्य पुराणम् ये यथाशक्त्या ह्युपायनैः शृण्वन्तीमाम् कथाम् मूढाः स्युर्दरिद्रान पावनाः कथायाम् कथ्यमानायाम् गच्छन्तन्यत्र ये नराः भोगान्तरे प्रणश्यन्ति तेषाम् दारादिसम्पदः सोष्णीषमस्तकाये च शृण्वन्तीमाम् कथाम् नराः तत्पुत्रा च प्रजायन्ते पापिनः कुलदूषकाः ताम्बूलम् भक्षयन्तो ये शृण्वन्तीमाम् कथाम् नराः पविष्टाम् खादयन्त्येतान् नरके यमकिङ्कराः ये च तुङ्गासनारूढा शृण्वन्तीमाम् कथाम् नराः भुक्त्वा ते नरकान् सर्वाम् ततः काका भवन्ति हि ये वीराद्यासनारूढाः शृण्वन्तीमाम् कथाम् शुभाम् भुक्त्वा ते नरकान् सर्वान् विषवृक्षा भवन्ति वै असम्प्रणम्य भक्तारम् कथाम् शृण्वन्ति ये नराः भुक्त्वा ते नरकान् सर्वान् भवन्त्यर्जुनपादपाः अनाथुरा च याना ये शृण्वन्तीमाम् कथाम् नराः भुक्त्वा ते नरकान् सर्वान् भवन् यजगरादयः वक्तुः समासनारूढा ये शृण्वन्ति कथामिमाम् गुरुकल्पसमम् पापम् प्राप्यते नारकैः सदा ये निन्दन्ति च वक्तारम् कथाम् चेमाम् सुपावनीम् भवन्ति शुनका भुक्त्वा दुःखम् जन्मशतम् हिते कथायाम् वर्तमानायाम् दुर्वादिम् ये वदन्ति हि भुक्त्वा ते नरकान् घोरान् भवन्ति गर्दभाततः कदाचिन्नापि शृण्वन्ति कथामेताम् सुपावनीम् भुक्त्वा ते च नरकान् घोरान् भवन्ति वनसूकराः कथायाम् कीर्त्यमानायाम् विघ्नम् कुर्वन्ति ये खलाः कोट्यब्दम् नरकान् भुक्त्वा भवन्ति ग्रामसूकराः एवम् विचार्य शुद्धात्मा श्रोता वक्तृसुभक्तिमान् कथाश्रवणहेतोर्हि भवेत् प्रीत्योजितः सुधीः कथाविघ्नविनाशातम् गणेशम् पूजयेत्पुरा नित्यम् सम्पाद्य संक्षेपात् प्रायश्चित्तम् समाचरेत् नवग्रहाम् च सम्पूज्य सर्वतो भद्रदैवतम् शिवपूजोक्तविधिना पुस्तकम् तत्समर्चयेत् पूजनान्ते महाभक्त्या करौ भद्वा विनीतकः साक्षात् शिवस्वरूपस्य पुस्तकस्य स्तुतिम् चरेत् श्रीमच्छिवपुराणात्यप्रत्यक्षस्त्वम् महेश्वरः श्रवणार्थम् स्वीकृतोऽसि सन्तुष्टो भव वै मयि मनोरथो मदीयोऽयम् कर्तव्य सफलत्वया निर्विघ्नेन सुसम्पूर्णम् कथा श्रवणमस्तु मे भवाभ्यमग्नम् दीनम् माम् समुद्धर भवान्नवात् कर्मग्राहगृहीताङ्गम् दासोऽहम् तव शङ्कर एवम् शिवपुराणम् हि साक्षात् शिवस्वरूपकम् स्तुत्वा दीनवचः प्रोच्य वक्तुः पूजाम् समारभेत् शिवपूजोक्तविधिना वक्तारम् च समर्चयेत् सपुष्पवस्त्रभूषाभिर्धूपदीपादिनार्चयेत् तदग्रे शुद्धचित्तेन कर्तव्यो नियमस्तदा आसमाप्ति यथाशक्त्या धारणीयः सुयत्तदः व्यासरूपप्रबोधाग्र्य शिवशास्त्रविशारद एतत्कथाप्रकाशेन मदज्ञानम् विनाशय वर्णम् पञ्चविप्राणाम् कार्यम् वैकस्य भक्तिदः शिवपञ्चार्णमन्त्रस्य जपकार्यश्च वैः सदा इत्युक्तस्ते मुने भक्त्या कथाश्रवणसद्भिः श्रोतॄणाम् चैव भक्तानाम् किमन्यत् श्रोतुमिच्छति इति श्रीस्कान्दे शिवपुराणमाहात्म्ये श्रवणविधिवर्णनम् नाम षष्ठोऽध्यायः अथ सप्तमोऽध्यायः ॐ